नमोस्तु नालिकनिभाननाय भवानि सरोरुहाक्षी त्वदवन्दनानि दुरिता हरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधि सेवकस्य सकलार्थसंपदः संतनोति वचनांगमानसंस्था मुरारि हृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनो त्रिभुवन भूतिकरी प्रसीद मह्यं दिग्धस्तिभिः कनककुम्भमुखाव सृष्टिस्वरवाहिनी विमलचारुजलप्लुताङ्गीं प्रातर नमामि जगतां जननीमशेषं लोकाधिनाथ गृहिणी पुत्रीं कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गैतरपाङ्गैः अवलोकय मां किञ्चनानां प्रथमं पात्रं कृत्रिमं दयायाः स्तुवन्ति ये स्तुतिभिर्भूमिरन्वहन् त्रयीमयी त्रिभुवन मातरं रमा गुणाधिका गुरुतर भाग्य भागिनो भवन्ति ते भुई बुधभाविताशया इति श्रीमच्छंकराचार्य वेचितं कनकधारास्तोत्रं संपूर्ण।